एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः कार्यकार्याध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य च मध्ये ह्यो विमृष्टम् वर्तते। प्रधानमन्त्री निवासे बालवाटार स्थाने ह्य सायम् अध्यक्षद्वयस्य मध्ये सामयिक विषयेषु विमर्शनम् अभवदिति अध्यक्षस्य प्रचण्डस्य संचार संयोजकः विष्णु सापकोटा अज्ञापयत्। अर्थमन्त्री विष्णुप्रसाद पौडेलः कथयति सर्वेभ्यो नागरिकेभ्यो यथासमयं कोरोना विषाणो विरोधिन टीकाकरणस्य प्रदानाय श्रोतसा अभावो न भवति। अर्थमन्त्रालये गतदिने नेपालार्थिक पत्रकार संघस्य नवनिर्वाचित पदाधिकारीभिः सह सम्पन्ने मेलने अर्थमन्त्री पौडेलः अवोचत् सर्वेभ्यो नागरिकेभ्य टीकाकरणस्य निःशुल्कं प्रदानाय आवश्यक व्ययस्य व्यवस्थापन सामर्थ्यस्य अवस्थायं सर्वकारो वर्तते। अर्थमन्त्री पौडेलः कोरोना संक्रमणस्य नियन्त्रणाय सर्वकारेण न्यूनमूल्यस्य गुणस्तरीयस्य विश्वसनीयस्य च टीकाकरणस्य शीघ्रातिशीघ्रम् आनयनत्वेन कार्यम् अग्रे वर्धाप्यते इति प्रतिबद्धतां व्यक्तवान्। पौडेलेन प्रोक्तं सर्वकारेण आनेष्यमाणं टीकाकरणं प्राथमिकतायाः अनुसारेण सर्वेभ्यः प्रदास्यते। सम्प्रति सर्वकारस्य मुख्य ध्यानं कोरोना विरोधिनी युद्धे सफलतायाः प्राप्तये राष्ट्रस्य आर्थिक सामाजिकावस्थायाः पूर्वस्थितौ प्रत्यावर्तनत्वेन उत्पादनशील गतिविधीनां प्रवर्धनाय च केन्द्रितमस्तीति च असौ अगदत्। स्वास्थ्य जनसंख्या मन्त्री भानुभक्त ढकालः कथयति कोरोना महामार्याः प्रारभणस्य अवस्थायं शीघ्रातिशीघ्रं स्वास्थ्य सामग्र्यः आनेयः आसन् इति हेतोः क्रयणक्रमे द्रुत प्रक्रिया अवलम्बी बनिया अभूत। संघीय संसद सार्वजनिक लेखा समिते ह्य सिंह प्रासादे उपविष्टे उपवेशे मन्त्री ढकाल मन्त्री परिषद यथासम्भव शीघ्र प्रक्रियात स्वास्थ्य सामग्री आनेतुं नीतिगत निर्देशन प्रदान अनन्तरं क्रयण प्रक्रिया अग्रे वर्धापिते इति समस्पष्टयत। मन्त्री ढकाल स्वास्थ्य सामग्रीणां विश्वापणे एव अभावस्य अवस्थायां क्रयण प्रक्रियाया संक्षेपीकरणस्य सहजीकरणस्य च बाध्यात्मिकी अवस्था आगतेति समितये अज्ञापयत्। अन्तरे सार्वजनिक लेखा समित्या स्वास्थ्य सामग्रीणां क्रयण प्रक्रियायाम् अनियमितता विहितेति निश्चित्य आवश्यकानुसन्धानं विधाय दण्डयितुम् अधिकार दुरुपयोगानुसन्धानायोगाय पत्राचारं विधातुं निर्णीतं वर्तते। स्वास्थ्य सामग्रीणां क्रयण प्रक्रिया पूर्णरूपेण नियमसंगता नास्ति। क्रयण प्रक्रियायां संलग्नानां पदाधिकारिणां दोषिणो निश्चयनस्य अवस्था च सृष्टेति कारणात् अतिरिक्तानुसन्धानं विधाय दण्डयितुम् अधिकार दुरुपयोगानुसन्धानायोगे लिखित्वा प्रेषणाय निर्णीतमिति समितेः सचिवः रोजनाथ पाण्डे उपवेशस्य अनन्तरं संचारकर्मिणः अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेना कोविड 19 संक्रान्तानां जनानां सुरक्षणावासे एकान्तवासे वा निवसनस्य अवधि न्यूनीकृतो वर्तते। पूर्वं संक्रान्तानां जनानां कृते 14 दिनानि यावत् अनिवार्यतः सुरक्षणावासे एकान्तवासे वा निवसनं निर्धारितं सदपि इदानीं केवलं 10 दिवसावधि पर्याप्तं भवतीति ज्ञापितं वर्तते। विभिन्नैः अध्ययनैः 10 दिनानां पश्चात् संक्रमणं एक व्यक्तेः अपर व्यक्तौ प्रसरणं न भवतीति प्रदर्शितमिति हेतोः सुरक्षणावास एकान्तवासे वा निवसनस्य अवधि न्यूनीकृत इति मन्त्रालयस्य सहप्रवक्ता डाक्टर समीर कुमार अधिकारी अज्ञापयत्। एवमेव मन्त्रालयस्य स्वास्थ्यापत्कालिक कार्य संचालन केन्द्रेण विदेशात् नेपालम् आगतः व्यक्तयः अनिवार्यं 10 दिनानि सुरक्षणावासे एकान्तवासे वा अवस्थातुं निर्दिष्टाः सन्ति। केन्द्रस्य प्रमुख सहप्रवक्ता च डाक्टर अधिकारी सूचनां प्रकाश्य विदेशात् नेपालागमनस्य संक्रान्तैः जनैः सह सम्पर्क स्थापनस्य वा दिवसतो न्यूनतोऽपि 10 दिनानि अनिवार्यं सुरक्षणावासे एकान्तवासे वा स्थातव्यमिति अबोधयत्। नेपाले कोरोना संक्रमणात् ह्य अतिरिक्ताः 1039 जनाः मुक्ताः वर्तन्ते। ह्यस्तनावधि नेपाले आराष्टं 970 कोरोना विषाणोः सक्रिय संक्रान्ताः जनाः सन्ति। ह्य अतिरिक्तेषु 82 जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। कोरोना संक्रमणेन ह्य अतिरिक्तानां 16 जनानां मृत्योः पश्चात् संक्रमणेन आराष्टं मृतानां जनानां ह्यस्तनावधि समग्र संख्या 1065 प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितमस्ति। नेपाली कांग्रेस दलेन सांविधानिक परिषद सम्बद्धम अध्यादेशम अविलम्बेन प्रत्यावर्तयितुम सर्वकार अनुरुद्धो वर्तते। कांग्रेस संसदीय दलस्य कार्यसमिते ह्या उपविष्टेन उपवेशेन संसद अधिवेशनम प्रवञ्च्य सांविधानिक परिषद सम्बद्धस्य अध्यादेशस्य आनयनम अलोकतान्त्रिकम् अस्तीति निष्कर्षम् प्रकाश्य अध्यादेशम् अविलम्बेन प्रत्यावर्तयितुम् शीघ्रातिशीघ्रम् संसद अधिवेशनम् आह्वातुञ्च सर्वकार अभियाचितोऽस्तीति नेपाली कांग्रेस दलस्य सचेतक पुष्पा भूषाल अबोधयत्। संस्कृति पर्यटन नागरिकको डेन मन्त्री योगेश भट्टराई भाषते आगामी ख्रिष्ट वर्षम आन्तरिक पर्यटन भ्रमण वर्षस्य रूपेण अग्रे वर्धाप्यते। काष्ठमण्डपे ह्या आयोजिते कार्यक्रमे मन्त्री भट्टराई पर्यटन क्षेत्रे कोरोना महामार्या प्रभाव सृष्ट इति भाषमाण नेपालस्य पर्यटनापणम् रक्षितुम् आगामी ख्रिष्ट वर्षम आन्तरिक पर्यटन भ्रमण वर्षस्य रूपेण अग्रे वर्धाप्यते इति अबोधयत्। अद्य विवाह पञ्चमी पर्व सभक्ति भगवतः श्रीरामस्य जनकनन्दिन्यः सीतायाश्च पूजाराधने विदाय समायोज्यते। पुरा त्रेतायुगे मर्यादा पुरुषोत्तमेन श्रीरामेण राजर्षेर् जनकस्य प्रतिज्ञां प्रपूर्य तदीय पुत्र्या सीतया सह अस्यामेव तिथौ विवाहो विहितः इत्यालक्ष्य अद्य भव्य वरयात्रा जनकपुर धाम्नो राम मन्दिरात् जानकी मन्दिरम् एत्य उभयो आदर्श पात्रयोः विवाहम् विदधाति। अद्य श्रद्धालवो भक्तजनः प्रत्युषादेव पवित्र सरोवरेषु नदीषु च स्नात्वा रामजानक्योः दर्शन पूजन स्तवनानि विदधति। अस्मिन् वर्षे कोरोना महामार्या कारणेन जनकपुर धामनि विधातव्यः विवाह महोत्सवः संक्षिप्त विधिना भौतिक दूरीं संस्थाप्य सम्पाद्यते इति ज्ञापितमस्ति। विवाह पञ्चमी पर्व नेपाल भारतयोः धार्मिक सांस्कृतिक सामाजिक सम्बन्धम् दृढयितुमपि सातिशयम् महत्वपूर्णां भूमिकां निर्वहति। राष्ट्रिय मानवाधिकार आयोगेन कोरोना महामार्याः कारणेन मृत्युपार्जनम् हापित्वा नेपालं प्रत्यावृतानाम् आप्रवासी नेपाली श्रमिकाणाम् अभिलेखीकरणाय सर्वकार अनुरुद्धोऽस्ति। आयोगस्य प्रवक्ता डा टीकाराम पोखरेलेन ह्यः प्रकाशितायम् विज्ञप्तो संघीय सर्वकारेण प्रदेशेन सम्बद्धैः इतर संघ संस्थाभिश्च सह समन्वयम् विधाय प्रभावकारितया पुनः एकीकरणाय कार्यम् विधातुम् सर्वे स्थानीय निकायाः अनुरुद्धाः वर्तन्ते। नेपाल दूरसञ्चार प्राधिकरणेन नेपालस्य स्वस्यैव भूपग्रहस्य स्थापनस्य प्रक्रियायै आशयपत्रम् अभियाचितमस्ति। गत मार्ग मासस्य द्वाविंशे दिवसे निरस्तीकृत प्रस्तावेन प्राधिकरणेन अस्य नियमनस्य सुरक्षायाः सञ्चालन प्रारूपस्य च नीतिम् निर्धारयितुम् नूतन प्रस्तावः आहूतो वर्तते। रेडियो नेपाले सञ्चालिता अनलाइन पत्रकारिता सम्बद्धा साप्ताहिकी कार्यशाला ह्य समाप्ता। कार्यशाला समापन कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य सचिव रेडियो प्रसार सेवा विकास समिति अध्यक्षस्य हरिप्रसाद भस्यालः रेडियो नेपालस्य अनलाइन सेवाम् अतिरिक्ताम् गुणस्तरीयाम् प्रभावकारिणीञ्च विधातुम् प्रशिक्षणम् महत्वपूर्णम् पूर्णा शेष्यतीति विश्वासम् व्यक्तवान् इति समाचारः।